अजं ग्रत्तरगृभीतो विश्वजिदुद्भिदित् सोमाः ऋषिर्विप्रः काव्येन अभ्योर्णोतिजन्नग्नम् भिषक्ति विश्वम् यत्त्वरम् प्रेमन्धः खिन्निश्रोणोऽभूत् त्वम् सोमदनो गृद्भ्योत्वेषोऽभ्याञ्जकृतेभ्यः उरुजन्तासि वरोधम् पञ्चित्तेतपदक्षैर्दिव आपृथिव्यारुजेषिन्न यावेरघस्य जित्वेषाः अर्थिराजन्ति चेदर्थम् गच्छानि ददुषो रातिम् वव्रज्यस्रश्यतः कामम् विदद्यत्पूर्व्यन्नष्टमुदीमृताजुमीरजत प्रेमाजुस्तारीतदीर्णम् सुषेवो नामृळया कुरदृप्तक्रदुरपातः भवानः सोमशम् हृदे मानः सोमसंवेभिजो मा विभिषथा राजन् मानोहार्दित्विषावधीः अभयत्स्वे सधस्थे देवानाम् दुर्मतीरीक्षे राजन्नपद्विषस्य धमेढ्वो अपसृधस्य धा